अयि सुरभारती समुपासकाः श्रोतारः, संस्कृत साप्ताहिक्याः नूतने अंकेस्मिन् भवतां समेषां हार्दिकं स्वागतम् अभिनन्दनं च। श्रव्य पत्रिकायाः अंकमेतम् आदाय पुनरेकदा उपस्थितोऽस्मि अहं दिव्यानन्द झाः। अयि सुधियः श्रोतारः, जानीमो वयं यज्जीवनं नितरां बहुमूल्यम्, किन्तु विदुषां मूर्खाणां च लोकयात्रा भिन्नतया एव प्रवर्तते। सा च कथमिति सुभाषितमुखेन प्रस्तौति सम्प्रति मम सहयोगी पुरुषोत्तम शर्मा।
काव्यशास्त्र विनोदेन कालो गच्छति धीमतां, व्यसनेन च मूर्खाणां निद्रया कलहेन वा। अर्थात बुद्धिमान लोगों का समय काव्य और शास्त्र की परिचर्चा करने में व्यतीत होता है, जबकि मूर्खों का समय व्यसन नींद व कलह में व्यतीत होता है। धन्यवाद।
प्रिया श्रोतारः, संप्रति सरामः प्रसंग प्रभागं प्रति, यत्र अद्य भावपूर्णं स्तवनं विदधाति मम सहयोगिनी रिंकू जोशी।
जय शम्भुनाथ दिगंबरम्, जय शम्भुनाथ दिगंबरम्, करुणाकरम् जगदीश्वरम्, भवतारणम् भयहारणम्, भवतारणम् भयहारणम्, करुणाकरम् जगदीश्वरम्, करुणाकरम् जगदीश्वरम्। मृगच्छालयंग सुशोभितम्, करमालदण्ड विराजतम्, यमकालपाश विमोचकम्, करुणाकरम् जगदीश्वरम्।
अयि जागरूकाः श्रोतारः, जागतिक घटनाः ज्ञातुं सम्प्रति चलामः वार्ता प्रभागं प्रति। अद्य साप्ताहिक वैश्विक वार्ताः आदाय उपस्थितास्ति मम सहयोगिनी निधि झाः।
प्रधानमन्त्री नरेन्द्र मोदी बिहार पश्चिम बंग राज्ययोः 12,000 कोट्यधिक रूप्यकाणां विकास परियोजनानां शिलान्यासम् उद्घाटनं च करोति। प्रविधि संपर्क विद्युदादि क्षेत्रेषु युक्ता भवेत् नूतनायामः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः नवदिल्ली स्थिते विज्ञान भवने प्रतिष्ठितान् स्वच्छता सर्वेक्षण पुरस्कारान् प्रदत्तवती। उत्कृष्ट स्वच्छता संवलितानां 10,00,000 जनसंख्यायुतानां नगराणां श्रेणीक्रमे इन्दौर नगराय प्रथम पुरस्कारः, सूरत नगराय द्वितीयः पुरस्कारः, नवी मुंबई इति स्थलाय तृतीयः, अथ विजयवाड़ा नगराय चतुर्थः पुरस्कारः प्रदत्तः। पहलगाम इत्यत्र निर्दोष जनानां हनन क्रमे संलिप्तम् द रेसिडेंस फ्रंट इत्येतत् संघटनम् संयुक्त राज्य अमेरिकया आतंकी संघटनत्वेन घोषितम्। अधिगृहीताः भवेत् तत् सम्बद्धाः सम्पत्तिः, अनुदानमपि भवेत् अवरुद्धम्। भारतीय नौसेनायां सम्मिलितः निस्तार इत्याख्यः जलपोतः जलान्तर्वर्ती नौकानां सहायाभियान क्रमे भविष्यति अनेन सहायता। आगामिषु त्रिषु चतुर्षु वा दिनेषु मध्यप्रदेशोत्तर प्रदेशयोः अतिवृष्टि परा रक्तवर्णीया सञ्चेतना। पंजाबं हरियाणाम् अथ च राजस्थानं समेत्य पर्वत क्षेत्रेष्वपि अत्यधिक वृष्टेः अस्ति सम्भावना।
अयि मान्याः श्रोतारः, अद्य ज्ञान विज्ञानाख्ये साक्षात्कार प्रभागे अस्माभिः साकं संवादाय उपस्थिताः विद्यन्ते जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य कुलपतिचराः, नाना सम्मान सभाजिताः ज्योतिर्विदः प्रोफेसर विनोद शास्त्री महाभागाः। सम्प्रति अस्मदीय सहयोगिना सुरेश चन्द्र शर्मणा साधितेन संवाद माध्यमेन जानीमः भारतीय ज्ञान प्रवाहं प्रति प्रोफेसर शास्त्री वराणां विचारान्।
नमो नमः। साप्ताहिक्याः ज्ञान विज्ञान प्रभागेस्मिन् सर्वेषां श्रोतृवर्याणां हार्दिकं स्वागतम्। मित्राणि आकाशवाण्याम् अस्माभिः सह संवादाय अद्य समुपस्थिताः सन्ति जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य पूर्वकुलपति पदासीनाः राजस्थान संस्कृत अकादम्याः पूर्वनिदेशकाः जयपुरस्थस्य राजस्थान ज्योतिष परिषद एवं शोध संस्थानस्य महासचिवाः ज्योतिषक्षेत्रे नैकैः राष्ट्रियान्ताराष्ट्रिय पुरस्कार ख्याति प्राप्ताः ज्योतिषाचार्याः महान्तः प्रोफेसर विनोद शास्त्री वर्याः शास्त्री महाभागानां हर्षातिरेकाभिनन्दन वचोभिः आकाशवाणी पक्षतः अहं सुरेश चन्द शर्मा हार्दिकम् अभिनन्दनं स्वागतञ्च करोमि।
नमो नमः। अहमपि कार्यक्रमेऽस्मिन् समागत्य धन्योऽस्मि।
मान्यवर्याः, साक्षात्कार प्रभागस्य प्रथमे चरणे प्रश्नः यत् अद्यतने वैज्ञानिके समाजे ज्योतिषशास्त्रस्य का उपयोगिता वर्तते। अस्माकं श्रोतृभ्यः ज्योतिषनाम्नः वेदाङ्गशास्त्रस्य उपयोगिता विषये कृपया ज्ञापयन्तु।
षट्सु वेदाङ्गेषु अन्यतमं वर्तते शास्त्रमिदं ज्योतिषशास्त्रम्। विद्यन्ते तत्र त्रयः स्कन्धाः अस्य शास्त्रस्य, सिद्धान्त, संहिता, होरा चेति। अद्यत्वे सिद्धान्तज्योतिषं नाम खगोलज्योतिषम्, एस्ट्रोनॉमी इति भवति। संहिताग्रन्थेषु मुहूर्तग्रन्थाः, वास्तुशास्त्रीयग्रन्थाः, सामुद्रिकशास्त्रञ्च अन्तर्भवन्ति। होराग्रन्थेषु फलादेशसिद्धान्ताः सुतरां प्रतिपादिताः वर्तन्ते। अद्य प्रत्येकं परिवारस्य कृते, समाजस्य कृते, राष्ट्रस्य कृते, निखिलस्यापि संसारस्य कृते ज्योतिषशास्त्रमिदं महद् उपकारकं वर्तत इति। जनसामान्येषु भावि फलादेशमाध्यमेन ज्योतिषशास्त्रस्य विद्वन् मूर्धन्यः आत्मबल संचारं कुर्वन्ति। उच्यते खलु, आशा बलवती राजन् सल्योजयिष्यति पाण्डवान्, आशा एव वर्तते जीवनं, निराशा मृत्युः। तस्मात् इदं ज्योतिषशास्त्रं जनसामान्यस्य कृते जीवनं प्रयच्छति नितराम्। एकेन उदाहरणेन तथ्यमिदम् अवगन्तुं शक्नुमः वयम्। गजसिंहयोः, गजः सिंहात् 10 गुणाधिकं बलवान् भवति। शरीरमपि गजस्य सिंहापेक्षया वृद्धिं प्राप्नोति। परन्तु विपिने अधिकांशतः सिंहः गजं हन्ति, यतः अस्य कारणमिदम् एव वर्तते यत् सिंहे गजात् 10 गुणाधिकं तिष्ठति आत्मबलम्, गजे च भवति न्यूनता आत्मबलस्य। अतः ज्योतिषिकाः आत्मबलं संचार्य समाजाय कमपि अभिनवं दिशानिर्देशं प्रददाति।
शास्त्री महोदयाः, यथा सर्वविदितं यत् भवता विश्वस्य नैकेषु देशेषु ज्योतिषशास्त्रं, धर्मशास्त्रं, भारतीयसंस्कृतिं च आलक्ष्य व्याख्यानानि नैकानि प्रदत्तानि। ज्ञातुमिच्छामः यत् तत्र भवता ज्योतिषशास्त्रस्य स्थितिः कथं दृष्टा।
भवतां प्रश्नोऽयं समीचीनः, रुचिकरश्च। सम्प्रति ज्योतिषशास्त्रस्य देशान्तरेषु अपि भूयान् प्रचारः प्रसारश्च जायमानो वर्तते। अमेरिका, इङ्ग्लैण्ड्, जर्मनी, मोरिशस्, नीदरलैण्ड्, आस्ट्रेलिया प्रभृतिषु देशेषु ज्योतिषविज्ञानस्य कक्षाः प्रचलन्ति विधिवत्। विदेशेषु, विशेषतो विकसितेषु देशेषु निवसन्तो जनाः दुःखिनः सन्ति। तेभ्यः सर्वेभ्यो जनेभ्यः सुख समृद्धि शान्ति कल्याण शिक्षां प्रदातुं भारतीय ज्योतिषविज्ञानस्य महती भूमिका वर्तते। सुखं शान्तिञ्च कदाचिदपि जनो धनेन प्राप्तुं न शक्नोति। धनं केवलं सहायकमात्रं, सम्पूर्णजीवनस्य कृते वा सम्पूर्णजीवनं यापयितुं कस्यापि जनस्य वैचारिकी शैली काचिन् महत्वपूर्णा भवति। जन्मकुण्डल्या द्वादशस्थानात् विचारशैल्यः ज्ञानं भवति, द्वितीयस्थानात् अभिव्यक्तिक्षमता अभिज्ञायते। भारतीयजीवनपद्धति पारिवारिकप्रथायाम् आधारिता वर्तते। विदेशेषु जीवनपद्धतिः एकाकीजीवने आधारिता वर्तते, अतः तत्र मानसिककष्टानि बहुल्येन भवन्ति। ज्योतिषशास्त्रं तानि कष्टानि अनायासेन दूरीकर्तुं यतते।
महोदयाः, ज्योतिषं तु पूर्णतया वैज्ञानिकं शास्त्रं, परं वास्तुशास्त्रविषये भवतां के विचाराः? किमिदं वैज्ञानिकं? तत्र वास्तुशास्त्रस्य वैज्ञानिकपक्षमालक्ष्य अस्माकं श्रोतॄन् कृपया ज्ञापयन्तु।
ज्योतिषशास्त्रेण समं वास्तुशास्त्रस्यापि प्रचलनं सम्प्रति बहु जातम् अस्ति। वास्तुशास्त्रमिदं ज्योतिषविज्ञानस्य संहिताभागस्य अंशो वर्तते। वास्तुशास्त्रं पञ्चतत्त्वेषु आधारितं पूर्णवैज्ञानिकं शास्त्रम् अस्ति। अधुना काले वास्तुशास्त्रानुसारं गृहनिर्माणम् अत्यन्तं कष्टकरं वर्तते, परन्तु वायुसंपृक्तं प्रकाशयुक्तं च भवनमेव वास्तुशास्त्रसम्मतं भवति। वास्तुशास्त्रे तु शौचालयः स्नानगृहञ्च समष्टितया निर्मातुम् अशक्यं वर्तते। गृहस्य ब्रह्मस्थानम् अर्थात् गृहस्य मध्यभागः यम चौक इति नाम्ना प्रोच्यते अपि धानं स्यात्, परन्तु अधुना यानि भवनानि निर्मीयन्ते तत्र ब्रह्मस्थानम् अवगुण्ठितं भवति। अतो यदा मूलभूता एव सिद्धान्ताः वास्तुशास्त्रानुगुणाः न पाल्यन्ते तदा अधिकांशेषु गृहेषु शान्तिः न तिष्ठति। सोशियल् मीडिया तथा अपूर्णज्ञानयुतानि वास्तुशास्त्रपुस्तकानि भ्रमजनकानि सन्ति, यही सर्वत्रापि इतोप्यधिका अशान्तिः वर्धते। वस्तुस्थितिरेव वास्तुशास्त्रं, नेचुरल् पोजिशन्। अतः सरलं सरसम् अनायासं सुखदं जीवनं जीवितुं यापयितुं मूलभूत वास्तुसिद्धान्तानां पालनम् अवश्यम् अस्माभिः करणीयम्। ये नकारात्मक भ्रमविस्तारकाः सन्ति तेभ्यो वञ्चकेभ्यः सर्वथा पृथक् एव अस्माभिः भाव्यम्, तदा शान्तिरेव शान्तिः स्थास्यति।
शास्त्री महाभागाः, ज्योतिषशास्त्रविषये भवता ख्यापितैः वचनैः अस्माकं श्रोतारः लाभान्विताः, अनुरञ्जिताः, धन्याः। एतस्मै संवादाय भवता स्वीयः बहुमूल्यसमयः कल्पितः, तदर्थम् आकाशवाणीपक्षतः पौनःपुन्येन हार्दाः धन्यवादाः, सादरं प्रणामाः, नमो नमः।
सर्वेभ्यः श्रोतृभ्यः बहु धन्यवादाः। जयतु भारतं, जयतु संस्कृतम्।
आचार्याणां प्रोफेसर विनोदशास्त्रीमहाभागानां वचनानि श्रुत्वा जाताः वयम् अतितराम् आप्लाविताः। अयि संस्कृतप्रेमिणः, आगच्छन्तु संस्कृतदिग्दर्शिनी प्रभागे, यत्र विश्वस्मिन् अपि विश्वे संस्कृतसंवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति सुषमा कुमारी।
राधा माधव आदर्श संस्कृत महाविद्यालयेन केन्द्रीय संस्कृत विश्वविद्यालयस्य नवदिल्ली इत्यस्य सहयोगेन संस्कृत सम्भाषण कार्यशाला शास्त्र चर्चां च विषयम् आधृत्य जुलाई 26 यावत् 10 दिवसीय दक्षता विकास कार्यक्रमः आयोज्यते। भारतीय ज्ञान विभागेन शिक्षा मन्त्रालयेन भारतीय प्रशासनेन च सम्भूय नवदिल्लीस्थ केन्द्रीय संस्कृत विश्वविद्यालयेन परम्परागत गुरुकुल छात्रेभ्यः सेतुबन्ध छात्रवृत्ति योजनायाः लाभाय आवेदनानि आमन्त्रितानि। महर्षि पाणिनि संस्कृत वैदिक विश्वविद्यालयेन देवास मार्ग उज्जयिनी मध्यप्रदेशे महाकवि कालिदास स्मृति दिवस महोत्सव आयोजित। पटनास्थे राजकीय संस्कृत महाविद्यालये मानव जीवन में योग की आवश्यकता इति विषयमावलम्ब्य एक दिवसीय विशिष्ट व्याख्यानमाला ऑनलाइन ऑफलाइन माध्यमेन आयोजिता। जयपुरे राजस्थाने ज्योतिष वेद वेदांग संस्कृत संस्थानेन ब्रह्म गायत्री रहस्यम इति विषयमालक्ष्य एकं विशिष्टं व्याख्यानम् आयोजितम्। धरणेधर विश्वविद्यालये संस्कृत विभागः अगस्त मासे द्विदिवसीया संगोष्ठी समायोजयिष्यति। अत्र विषयो वर्तते भारतीय ज्ञान परम्परायाः उपजीव्यत्वेन संस्कृतम्।
अयि रसिकाः श्रोतारः, जानीमो वयं यद् बालाः कथासु गीतेषु च भवन्ति कियन्तः रुचिमन्तः। तर्हि आगच्छन्तु एहि शृणुमः बालमनोवल्लरी प्रभागे बालकथामेकाम्, ताम् च रुचिकरशैल्या प्रस्तौति साधना शर्मा।
बालाः, वर्षा ऋतौ अहम् चटिका वानरयोः एकाम् कथाम् श्रावयामि। एकस्मिन् विशालवने एकः वृक्षः आसीत्। तस्य वृक्षस्य शाखायाम् एकः कपिः निवसति स्म। सः किमपि न करोति स्म, केवलम् दिवसम् यावत् क्रीडति, फलानि खादति, उच्छृङ्खलेन हसति च। तस्मिन् एव वृक्षे एका चटिका अपि निवसति स्म। सा अत्यन्तम् परिश्रमेण स्वपुत्राणाम् कृते भोजनम् आनयति स्म, गृहम् अपि रचयति स्म। कपिः चटिकायाः कार्यम् दृष्ट्वा उपहासम् कृतवान्। हे चटिके, त्वम् तु सर्वदा व्यस्तासि, विश्रान्तिम् कुरु, जीवनम् आनन्दाय न परिश्रमाय। चटिका उत्तरम् ददाति, भो कपे, परिश्रमेण कृतं कर्म एव विपत्तु रक्षयति। अहं तु भवन्तमपि कथयामि, त्वमपि एकं गृहं कुरु, परन्तु त्वं न शृणोषि। कपिः पुनः हसतवान्, मां मा शिक्षय, अहं मुक्तः अस्मि, यतेष्टं करोमि। कालः गच्छति, वर्षा प्रारब्धा, गगने अन्धकारः, वातः तीव्रः, जलधारा तीव्रा। चटिका स्वगृहे बालकैः सह सुरक्षिता आसीत्, किन्तु कपिः वृक्षस्य उपरि कम्पमानः भीतः क्षुधार्तः आसीत्। तर्हि चटिका वदति, भोकपे, मया पूर्वमेव उक्तम् यत् कार्यम् काले कर्तव्यम्, किम् अद्य न पश्यसि परिणामम्? एतत् श्रुत्वा कपिः अत्यन्तम् क्रुद्धः अभवत्। इति चिन्तयन् सः चटिकायाः गृहम् बलात् भग्नम् अकरोत्। चटिका रोदनम् कृतवती। अतः बालाः, शिक्षा वर्तते यत् मूर्खाय उपदेशः न करणीयः।
मान्याः श्रोतारः, अग्रिमः प्रभागोऽस्ति एकम् भारतम् श्रेष्ठम् भारतम् इति, यत्र मम सहयोगिनी मुदिता वीतालः प्रस्तौति राष्ट्रियैक्यद्योतकम् भाषात्रय सङ्गमम्।
प्रथमम् वाक्यमस्ति, मेघदूतम् संस्कृत साहित्यस्य प्रसिद्धम् खण्ड काव्यम् अस्ति। पहला वाक्य है, मेघदूत संस्कृत साहित्य का प्रसिद्ध खंड काव्य है। अवधि में, मेघदूत संस्कृत साहित्य के प्रसिद्ध खंड काव्य होए। द्वितीयम् वाक्यम् अस्ति, मेघदूतम् महाकवेः कालिदासस्य रचना अस्ति। दूसरा वाक्य है, मेघदूतम् महाकवि कालिदास की रचना है। अवधि में, मेघदूत महाकवि कालिदास के रचना होए। तृतीयम् वाक्यम् अस्ति, अस्मिन् काव्ये यक्षेण मेघस्य माध्यमेन निज संदेशः प्रेषितः। तीसरा वाक्य है, इस काव्य में यक्ष ने बादल के माध्यम से अपना संदेश भेजा है। अवधि में, यह काव्य मा यक्ष बादल के माध्यम से आपन सनेसा भेजे हैं। चतुर्थम वाक्यम अस्ति, मेघम दूत रूपेण नियोज्य यक्षः तस्मै मार्गस्य विवरणं ददाति। चौथा वाक्य है, मेघ को अपना दूत बनाकर यक्ष ने उसे रास्ता बताया। अवधि में, बदरा का आपन दूत बनाई के वो का रास्ता बतावत है। धन्यवाद।
प्रिया श्रोतारः, भवद्भिः सह संवाद प्रवर्तनस्य प्रत्यावर्तन वेला संप्रति समापन्ना। इमं कार्यक्रमं उपसंहर्तुम् अनुज्ञायताम् एष दिव्यानन्दः। संस्कृत साप्ताहिकीति कार्यक्रम विषये भवन्तः स्वकीयान् उद्गारान् प्रकाशयितुम् अर्हन्ति। एतदर्थम् अस्माकम् ईमेल् संकेतः अस्ति nsdsanskrit@gmail.com। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकम् अंकम् आदाय पुनः उपस्थास्यामहे। भवेत् तावत् मङ्गलम्।